ओम् अथ विंशोऽध्यायः वैदिकः पार्थिवपूजन प्रकारः सूत उवाच अथ वैदिकभक्तानां पार्थिवार्चा निगद्यत वैदिकेनैव मार्गेण भुक्तिमुक्तिप्रदायिनी सूत्रोक्तविधिना स्नात्वा सन्ध्यां कृत्वा यथाविधि ब्रह्मयज्ञं विधायादौ ततस्तर्पणमाचरेत् नैतिकीं सकलं कामं विधायानन्तरं पुमान् शिवस्मरणपूर्वं हि भस्मरुद्राक्षधारकः वेदोक्तविधिना सम्यक् सम्पूर्णफलसिद्धये पूजयेत् परया भक्त्या पार्थिवं लिङ्गमुत्तमं नदीतीरे तडागे च पर्वते काननेऽपि च शिवालयेषु चौदेशे पार्थिवार्चा विधीयते शुद्धप्रवेशसम्भूतां मृदमाहृत्य यत्तरः शिवलिङ्गं प्रकल्पेत सावधानतया द्विजाः विप्रे गौरा स्मृता शोना बाहुजे पीतवर्णका वैश्ये कृष्णा पादजाते ह्यतवा यत्र वा भवेत् संगृह्य मृत्तिकां लिङ्गं निर्माणार्थं प्रयत्तरः अतीव शुभदेजे च स्थापयेत्तामृतं शुभां संशोभित जलेनापि पिण्डीकृत्य शनैश्चनैः विधीयेत शुभं लिङ्गं पार्थिवं वेदमार्गदः ततः सम्पूजयेद्भक्त्या भक्तिमुक्ति फलाप्तये तत्प्रकारमहं वच्मि शृणुध्वं स विधानतः नमः शिवाय मन्त्रेण अर्चनद्रव्यं च प्रोक्षयेत् भूरसीति च मन्त्रेण क्षेत्रसिद्धिं प्रकारयेत् आपोऽस्मान् इति मन्त्रेण जलसंस्कारमाचरेत् नमस्ते रुद्रमन्त्रेण भाटिका बन्धमुच्यते शम्भवायेति मन्त्रेण क्षेत्रशुद्धिं प्रकारयेत् नमः पूर्वेण कुर्यात् पञ्चामृतस्यापि प्रोक्षणं नीलग्रीवाय मन्त्रेण नमः पूर्वेण भक्तिमान् चरे शङ्करलिङ्गस्य प्रतिष्ठापनमुत्तमं भक्तितस्तत एतत्ते रुद्रायेति च मन्त्रः आसनं रमणीयं वै दद्याद्वैदिकमार्गकृत् मानो महान्तमिति च मन्त्रेणावाहनं चरेत् याते रुद्रेण मन्त्रेण सञ्चरेद् उपवेशनं मन्त्रेण यामिषुमिति न्यासं कुर्या शिवस्य च अध्यवोचदिति प्रेर्णा प्रेम्णा अधिवासं मनुनाचरेत् मनुनाजौ जीव इति देवतान्यासमाचरेत् असौ यो अवसर्पतीति चाचरेत् उपसर्पणं नमोऽसु नीलग्रीवायेति पाद्यं मनुनाहरेत् अर्घ्यं च रुद्रगायत्र्या आचमनं त्रयम्बकेन च पयः पृथिव्यामिति च पयसा स्नानमाचरेत् दधिक्रावण्येति मन्त्रेण धृतिस्नानं च कारयेत् घृते स्नानं खलु घृतं घृतायादेति मन्त्रतः मधुवादा मधुनक्तं मधुमान्न इति त्रिचा मधुकण्ठस्नपनं प्रोक्तम् इति पञ्चामृतं स्मृतम् अथवा पाद्यमन्त्रेण स्नानपञ्चामृतेन च मानस्तोके इति प्रेम्णा मन्त्रेण कटिबन्धनं नमो धृष्णवे इति वा उत्तरीयं च धापयेत् यातेहेतिरिति प्रेम्णा ऋक्चतुष्केन वैदिकः शिवाय विधिना भक्तश्चरेत् वस्त्रसमर्पणम् नमश्वभ्य इति प्रेम्णा गन्धं दद्याद्रता सुधीः नमस्तक्षभ्य इति चाक्षतान् मन्त्रेण चार्पयेत् नमः पार्याय इति वा पुष्पं मन्त्रेण चार्पयेत् नमः पर्ण्याय इति वा बिल्वपत्रसमर्पणं नमः कपर्दिने चेति धूपं दद्याद्यथाविधि दीपं दद्याद्यथोक्तं तु नम आशव इतृचां नमो ज्येष्ठाय मन्त्रेण दद्या नैवेद्यमुत्तमं मनुनात्रेऽम्बकमिति पुनराचमनं स्मृतम् इमा रुद्रायेति रुचां कुर्यात्फलसमर्पणं नमो व्रज्यायेति रुचां सकलं शम्भवे अर्पयेत् मानो महान्तमिति च मानस्तोके इति ततः मन्त्रद्वयेनैकादशाक्षतीर्रुद्रान् प्रपूजयेत् हिरण्यगर्भ इति वृता दक्षिणां हि समर्पयेत् देवस्यत्येति मन्त्रेण अभिषेकं चरेद्भुतः दीपमन्त्रेण वाशम्भोर्नीराजनविधिश्चरेत् पुष्पाञ्जलिं चरेद्भक्त्या इमा रुद्राय चतृचा मानो महान्तमिति च चरेत्प्राज्ञप्रदक्षिणां मानस्तोकेति मन्त्रेण साष्टाङ्गं प्रणमे सुधीः एषते इति मन्त्रेण शिवमुद्रां प्रदर्शयेत् यतो यत इत्यभयां ज्ञानाख्यां त्र्यम्बकेन च नमः सेनेति मन्त्रेण महामुद्रां प्रदर्शयेत् दर्शयेद्धेनुमुद्रां च नमो गोभ्यरुचानयां पञ्चमुद्रा प्रदर्श्याथ शिवमन्त्रजपं चरेत् शतरुद्रियमन्त्रेण जपेद्वेदविचक्षणः ततः पञ्चाङ्गपाठं च कुर्याद्वेदविचक्षणः देवागासिति मन्त्रेण कुर्या शम्भोर्विसर्जनम् इत्युक्त शिवपूजाया व्यासतो वैदिको विधिः समासतश्च शृणुत वैदिकं विधिमुत्तमं रुचा सद्यो जातमिति मृदाहरणम् आचरेत् वामदेवाय इति च जलप्रक्षेपमाचरेत् अघोरेण च मन्त्रेण लिङ्गनिर्माणमाचरेत् तत्पुरुषाय मन्त्रेण आह्वानं कुर्यात् यथा विधिं संयोजयेत् वेदिकायाम् ईशानमनुनाहरम् अन्यत् सर्वविधानं च कुर्यात् संक्षेपदस्सुधीः पञ्चाक्षरेण मन्त्रेण गुरुदत्तेन वा तथा कुर्यात् पूजां षोडशोपचारेण विधिवत्सुधीः भवाय भवनाजाय महादेवाय धीमहि उग्राय उग्रनाजाय शर्वाय शशिमौलिने अनेन मनुना वापि पूजये शङ्करं सुधीः सुभक्त्या च भ्रमं त्यक्त्वा भक्तीव फलदः शिवः इत्यपि प्रोक्तमादृत्य वैदिकक्रमपूजनं प्रोचते। अन्यविधिः सम्यक् साधारणतया द्विजाः पूजा पार्थिवलिङ्गस्य सम्प्रोक्ता शिवनामभिः ताशृणुद्धं मुनिश्रेष्ठाः सर्वकामप्रदायिनीं हरो महेश्वर शम्भुः शूलपाणिः पिनाकधृक् शिवः पशुपतिश्चैव महादेव इति क्रमाद् मृदाहरणसङ्घट्ट प्रतिष्ठाह्वानमेव च स्नपनं पूजनं चैव क्षमस्वेति विसर्जनम् ओङ्कारादिचतुर्थ्यन्तैर्नमोऽन्तैर्नामभिक्रमाद् कर्तव्या च क्रिया सर्वा भक्त्या परमया मुदा कृत्वा न्यासविधिं सम्यक् षडङ्गं करयोस्तथा षडक्षरेण मन्त्रेण ततो ध्यानं समाचरेत् कैलासपीठासनमध्यसंस्थं भक्तसनन्दादिभिरर्च्यमानं भक्तार्तिदावानरमप्रमेयं ध्यायेदुमालिङ्गित विश्वभूषणं ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नं पद्मासीनं समन्तात् सुतम् अमरघनैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् इति ध्यात्वा च सम्पूज्य पार्थिवं लिङ्गमुत्तमं जपेत् पञ्चाक्षरं मन्त्रं गुरुदत्तं यथाविधिं स्तुतिभिश्चैव देवेशं सुवीद प्रणमन् सुधीः नानाविधाभिर्विप्रेन्द्राः पठेद्वै शतरुद्रियं ततः साक्षत पुष्पाणि गृहीत्वाञ्जलिना मुदा प्रार्थये चङ्करं भक्त्या मन्त्रैरेभिः सुभक्तितः तावकस्त्वद्गुणप्राणस्त्वच्चित्तोऽहं सदा मृड कृपानिधे इति ज्ञात्वा भूतनाथ प्रसीद मे अज्ञानाद् यदि वा ज्ञानाजपं पूजादिकं मया कृतं तदस्तु सफलं कृपया तव शङ्कर अहं पापो महानद्य पावनश्च भवान् महान् इति विज्ञाय गौरीश यदिच्छसि तथा कुरु वेदैः पुराणैः सिद्धान्तैर्ऋषिभिर्विविधैरपि न ज्ञातोऽसि महादेव कुतोऽहं त्वां सदाशिव यथा तथा त्वदीयोऽस्मि सर्वभावैर्महेश्वर रक्षणीयस्त्वयाहं वै प्रसीद परमेश्वर इत्येवं चाक्षतान् पुष्पान्यारोप्य च शिवोपरि प्रणमेद्भक्तिदः शम्भुं साष्टाङ्गं विधिवन्मुने ततः प्रदक्षिणां कुर्यात् यथोक्तविधिना सुधीः पुनस्तुवीद देवेशं सुतिभिः श्रद्धयान्वितः ततो गलरवं कृत्वा प्रणमेत् सुविनम्रधीः कुर्याद्विज्ञप्तिमादृत्य विसर्जनमथाचरेत् इत्युक्ता मुनिशार्दूलाः पार्थिवार्चाविधानदः भुक्तिदा मुक्तिदा चैव शिवभक्तिविवर्धिनी इत्यध्यायं शुचिस्तेन यः पठे शृणुयादपि सर्वपापविशुद्धात्मा सर्वान् कामानवाप्नुयात् आयुरारोग्यदं चैव यशस्यं स्वर्ग्यमेव च पुत्रपौत्रादिसुखदम् आख्यानम् इदमुत्तमम् इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे पार्थिवलिङ्गपूजाविधिवर्णनो नाम विंशोऽध्यायः ॐ।